श्रीमद् भगवद गीता षष्ठ अध्याय ध्यान योग। श्री भगवान उवाच, अनाश्रिता कर्म फलं कार्यं कर्म करोति य स सन्नासी च योगी च निरग्नेन चाक्रिया। जं सन्न्यासमिति प्राहुः योगं तं बुद्धि पांडव, न हि सन्नस्त संकल्प योगी भवति कश्चन। आरुरुक्षोर मुनेर योगं कर्म कारणं उच्यते, योगारूढस्य तस्यैव शमकारणम् उच्यते। यदा हि नेन्द्रियार्थेषु न कर्मश्यनुसज्यते, सर्वसङ्कल्पसन्न्यासी योगारूढस्तदुच्यते। उद्धरेरात्मनात्मानं नात्मानं अवसादये, आत्मैव हि आत्मनो बन्धु आत्मैव हरिपुरात्मनः। बन्धुरात्मात्मनस्तस्य जेनात्मैवात्मनाजितः, अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवः। जीतात्मना प्रशान्तस्य परमात्मा समाहितः, शीतोष्णसुखदुःखेषु तथा मानापमानये। ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः, युक्त इत्युच्यते योगी समलोष्ट्राश्मकाञ्चन। सुरीन्मित्रार्जुदासीनं मध्यस्थदेशबन्धुषु, साधुष्वपि च पापेषु समो बुद्धि विशिष्यते। योगी युञ्जीत सततं आत्मानं रहसि स्थितः, एकाकी जतचित्तात्मा निराशीरपरिग्रह। शूचौ देशे प्रतिष्ठाप्य स्थिरमासनम् आत्मनः, नातुच्छित्तं नातिनीचं चैलाजिनो पुषोत्तरम्। तत्रैकाग्रं मनः कृत्वा जतो चित्तेन्द्रियक्रियः, उपविश्वासने युञ्जा योगम् आत्मविशुद्धये। समङ्कायो शिरग्रीवं धारयन्नचलं स्थिर, सम्प्रेक्ष्य नाशिकाग्रं स्वं दिशश्चानवलोकयन्। प्रशान्तात्मा विगतभिः ब्रह्मचारी प्रतिष्ठितः, मनोसंयममचित्तो युक्त आसितो मत्परः। युञ्जन्नेवं सदात्मानं योगीयतमानसः, शान्तिं निर्मानपरां मत्संस्थाम् अधिगच्छति। नातृष्णतस्तु योगोऽस्ति न चैकान्तमनश्नतः, न चापि स्वप्नशीलस्य जाग्रत नैव चार्जुनम्। युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु, युक्तस्वप्नावबोधस्य योगो भवति दुःखः। यदा वीर्यतं चित्तं दृश्यते कदा यथा दीपो निवातस्थो नेङ्गते सोपमास्मितः योगिनो यतचित्तस्य युञ्जतो योगमात्मनः यत्रोपरमते चित्तं निरुद्धं योगसेवया यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति सुखमत्यन्तिकं जत्वत् बुद्धिग्राह्यं मतिन्द्रियं वेत्ति यत्र न चैवायं शीतश्चलति तत्रतः जं लब्धा च परं लाभं मन्नति नाधिकं ततः यस्मिन् स्थितो न दुःखेन गुरुनापि चलते तं विद्या दुःखसंयोग वियोगं योगसंयुतं स निश्चयेन वक्तव्यो योगनिर्भिन्नचेतसा सङ्कल्पप्रभवान् कामान् तक्ता सर्वान् अशेषतः मनसैवेन्द्रियग्रामं विनीयं समन्ततः शनैः शनैरुपपर्वेद् बुद्ध्या धृतिया आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तये यतो यतो निश्चरति मनश्चञ्चलम् अस्थिरं ततोस्ततो नियमयिता आत्मन्नेव वशेनये प्रशान्तमनसं हीयनं योगिनां सुखमुत्तमम् उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः सुखेन ब्रह्मसंस्पर्शम् अत्यन्तं सुखं पश्यते सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्याहं न प्रणश्यामि स च मे न प्रणश्यति सर्वभूतस्थितं यो मां भजते कर्तमास्थितः सर्वथा वर्तमानोऽपि स योगी मयि वर्तते आत्मैवं मेन सर्वत्र शमं पश्यति योऽर्जुन सुखं वा यदि वा दुःखं स योगी परमो मतः अर्जुन युवाच योऽयं योगस्तया प्रोक्त्या साम्येन मधुसूदन एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिरम् चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्गृहं तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् श्रीभगवानुवाच अशंशयं महाबाहो मनो दुर्निग्रहं चलम् अभ्यासेन तु कौन्तेय वैराग्येन च गृह्यते असंयतात्मना योगो दुष्प्राप्य इति मे मति वश्यात्मना तु यतता शक्को वाक्तुम् आयतः अर्जुन युवाच आयतु श्रद्धया पेत योगचलितमानस अप्राप्य योग संसिद्धि काम गति कृष्णागति कच्चिन्नो भय विभ्रष्ट छिन्ना भ्रमिव नश्यति अप्रतिष्ठो महाबाहो विमूढ ब्रह्मणोपति एतन्मे संशयं कृष्ण छेत्तुमर्हस्य शेषतः तदन्य संशयस्य चिन्ता नहि उपपद्यते श्री भगवान् उवाच पार्थ नैदेह नामुत्र विनाशस्तस्य विद्यते नहि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति प्राप्य पुण्यकृतान् लोकान् उषित्वा शाश्वति समान् शुचिनां श्रीमतां देहे योगभ्रष्टो विजायते अथवा योगिनां कुले भवति हीमतां एतद्भि दुर्लभोकरं लोके जन्म जलिदृशम् तत्रोतं बुद्धिजं योगं लभते पूर्वदेहिकं जगते च ततो भूय संसिद्धौ पुरुनन्दनः पूर्वाभ्यासेन तेनैव ह्रियते अवशोऽपि स जिज्ञासोरपि योगस्य शब्दब्रह्मादि वर्तते प्रयत्नाद् जतमानस्तु योगी संशुद्ध कीर्तिशः अनेक जन्म संसिद्ध ततो जातु परांगति तपःसिद्धोऽधिको योगी ज्ञानिभ्यस्वपि मतोऽधिकः कर्मिभ्यश्चाधिको योगी तस्माद् योगी भवार्जुनः योगिनामोऽपि सर्वेषां मद्गतेनान्तरात्मनः श्रद्धावान् भजते युवान् स्वामि युक्तोत्तमोऽतः ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंज्ञा